ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆರಶ್ರಣ್ವನ್ನೋತಿಭಿಃ ಸೀದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿಃ ವಾಜಿನೀವತೀ ಶ್ರೀರಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಣ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತಯುಷು ಶಿವತಮಾನ್ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶದವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಳಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾ ವಿಚಾಕಶೀಃ ಯಾ ವಿಶುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ವಿಭಶ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ವಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯದಾನ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ವಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂ ಭಯಂ ಸರ್ವಾಶ್ರಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಃ ಸುಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಇಮಹೇ ಅಸ್ರವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಣ್ಣಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾಜ್ಞಿಯೋಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇ ಶುಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿಣೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ
ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತೇರ್ವೀಣುಷ್ಟವಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾ ಸ್ವಾಂ ವಿಶ್ವತಸ್ವಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ವಾನ್ ನೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋಯ ಇಷುದಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ
पशूनाम् पतये नमो नमः स्वस्तिम् जलायत्ते श्रीमते पतीनाम् पतये नमो नमो बभ्रुषाय व्याधिने नाराम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय दधाविने क्षेत्राणाम् पतये नमो नमः सोताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चै घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय व्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाव्यभ्यो जिगागुं सद्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो रक्तम् च रज्जः प्रकृन्तानाम् पतये नमो नम उष्णेषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मध्योन्मन्मावेभ्यस्य भो नमो नम आतन्मानेभ्यः प्रतिदधानेभ्यस्य भो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च भो नमो नम आसीनेभ्यश्वयानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च भो नमो नम सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च भो नमः नम आव्याधिनीभ्यो विविध्यतेभ्यश्च भो नमो नम उगणाभ्यस्त्रियुं हतेभ्यश्च भो नमो नमो कृत्सेभ्यो कृत्सपरिभ्यश्च भो नमो नमो भ्रातेभ्यो व्रातपदेभ्यश्च भो नमो नमो गणेभ्यो गणपदेभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमो रतेभ्यो रतेभ्यश्च भो नमो नमो रथेभ्यो रथपदेभ्यश्च भो नमो नमः सेनाभ्यस्येनानिभ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च भो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयोभ्यश्वनिभ्यश्च भो नमो नमश्वभ्यश्वपदेभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः
चर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीनुष्टमाय चेशुमते च नमो रस्वाय च वामनाय च नमो बृहते च वर्षीरसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाधिराय च नमः शीघ्रियाय च शीघ्राय च नमः ऊर्ध्याय च वस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धयाय च नमः सोऽप्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो धृष्णवे च प्रवृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः चेक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काक्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्दाय च नमः कोप्याय च वक्ष्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे बधाय च दूरे बधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च गोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधाद्याय च आधाद्याय च नमः षष्ट्याय च भेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम केगुंशिलाय च क्षयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्याय च गृह्याय च नम सल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्टाय च नमो
హృదయాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చ లప్యాయ చ నమః ఊర్మ్యాయ చ శూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణషద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆవీవత్కేభ్యః ద్రావే అంధసస్వతే దరిద్రం నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభిర్మారో ఏషాం కించన అవమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయానో మృణ జీవసే ఇమాగుం రుద్రాయ తమసే కపర్దినే శయద్వేనాయ ప్రవదామహే మతిం యతానశ్యమషద్విపదే చతుష్పదే విశ్వం పుష్టంగ్రామే అస్మిన్ననాతురం మృడానో రుద్రోదనో మయస్కృత క్షయద్వేనాయ నమసావిధే మతే యచ్చంచయోశ్చ మనురాయజే పితా తదశ్యామతవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీర్షః మానస్సోకేతన ఏమాన ఆయుషిమానోషుమాను అశ్వేషురీర్షః వీరాన్నానో రుద్రభామితో వదేర్హవిష్మంతో నమసావిధేమతే ఆనాతే గో న ఉత పోరుషగ్నే క్షయద్వేనాయ సుం నమస్వేతే అస్తో రక్షాజనో అరిచ దేవ బ్రోహ్యదాజన శర్మ యచ్చ ద్విబర్హాః సుహిశ్రుతం నర్త సంయువానం మృగన్న భీమముపహత్తు ముగ్రం మృడాజరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పర్ణో రుద్రస్య హేతర్వక్తు పరిత్రేషస్య దుర్మతిరగాయో అవస్తి రామగవద్భ్యస్తనుష్వమీడ శోకాయ తనయాయ మృడయా మీడుష్టమ శివతమ శివో నః సువనాభవ పరమే వృక్ష ఆయుధన్నిదాయ కృత్రిం వసానాచర పినాకం విభ్రదాగహే వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా ఏషాగుం సహస్రయోధనే వధన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేందలిక్షే భవ అధీ నీలగ్రీవాశ్రితి కంఠా శర్వా అధః శ్రమాచరాః నీలగ్రీవాశ్రితి కంఠాదివగుం రుద్రా ఉపశ్రితాః ే వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాశ కపర్దినః యే అన్యేషు వివిద్యంతి పాత్రేషు పిబతో జనాన యే పతాంబతిరక్షయ ఐలభృతాయభ్యులః యే తేతాని ప్రచరంతి శిఖావంతో నిషంగిణః ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ಏಷಾಗುಂಸಃ ಸಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾವನ್ನಂ ಮಾತೋ ವರ್ಷವಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೇರ್ದಶೋ ದೇಚೇರ್ದಶೋದ್ವಾಸೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂದು ತೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ಮೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಯ್ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾತ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷಿಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನಯೋ ಅಪ್ಸುಯ ಔಷಧೀಶ ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾದಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂಬಾರಾಮೃತ್ಯೋರ್ಮತ್ಯಾಯಾಂದವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾವಿಶಾಂತಕಃ ದೀನಾನ್ನೀನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಶ್ವವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿರಸ್ವಶಸ್ವತನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಮೇ ಶಜಸ್ಯ ಯಕ್ಷ್ವಾಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ವಿರ್ದೇವಮಸುರಂಧುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷ ಜೋಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಾ ವಿಷ್ಣು ಸಜೋಷ ಸೇಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ಯುಮ್ನೈರ್ವಾಜೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಚ್ಯ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇಂಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜೈಷ್ಠ್ಯಂ ಚ ಮ ಆಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವರ್ಷ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಷಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಮೃಗಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕೃಪ್ತಂ ಚ ಮೇ ಕೃಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಷಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे ग्रन्था च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सर्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेन्नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे बुद्धाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे श्लेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे भाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे जौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आ ग्रहणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे जमशाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धृषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतपृच्छ म आधवरीयश्च म आग्नेयेद्रहम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे वचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हि च मे पष्टवाच्य मे पष्टौ हि च मुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वारश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च यष्णियस्यान्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च ఇడాదేవోర్మణుర్యజ్ఞనిర్బృహస్పతిరుక్తా మదాని సగుంషద్విశ్వే దేవాసూక్తవాచ పృథివీమా ధర్మా మాహిగుంసీర్ మధుమనిష్యే మధుజనిష్యే మధుభక్ష్యామి మధువదిష్యామి మధుమతీం దేవేభ్యో వాచ బుద్ధ్యాసగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం వా దేవా అవంతు శోభాయై పితరోను వదంతు. శాంతి శాంతి శాంతి. ృణీమహే గాతు యజ్ఞాయ గాతు యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం చి గాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే. ఓం శాంతి శాంతి శాంతి. సహస్రశీర్షా పురుషః సహస్రాక్షః సహస్రపాద్ స భూమిం విశ్వతో భృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉదామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జ్యాయాగశ్చ పురుషః పాదోస్య విశ్వా భూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదయిత్ పురుషః పాదోస్యేహా భవాత్ పునః తతో విశ్వం విక్రామత్ సాశనానశని అభి తస్మాత్ విరాడ జాయత విరాజో అధిపురుషః సజాతో అత్యరిచ్యత పశ్చాద్భూమిమతో పురః యత్పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మ విద్మ శరద్ధవే సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిధ కృతాః దేవాయద్యజ్ఞం తన్వానాః అబధ్నన్ పురుషం పశుం తం యజ్ఞం బర్హిషి ప్రోక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యార్షయశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః సంవృతం పృషదాజ్యం పశుగస్తాగశ్చక్రేవాయవ్యాన్ ఆరణ్యాన్ గ్రామ్యాశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః రచ సామాని జగ్గిరే ఛందాగుంసి జగ్గిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేచోభయాదతః గావోహ జగ్గిరే తస్మాత్ తస్మాజాత అజావయః యత్పురుషం యదధుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య గౌ బాహూ కా భూరూపాదా ఉచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహూరాజన్యః కృతః ಊರು ದದಸ್ಯ ಯದ್ವೈಶ್ಯಃ ಪದ್ಭ್ಯಾಗುಂ ಶೂದ್ರೋ ಅಜಾಯತ ಚಂದ್ರಮಾಮನಸೋ ಜಾತಃ ಚಕ್ಷೋ ಸೂರ್ಯೋ ಅಜಾಯತ ಮುಖಾದಿಂದ್ರಶ್ಚಾಗ್ನಿಶ್ಚ ಪ್ರಾಣಾದ್ವಾಯುರಜಾಯತ ನಾಭ್ಯಾದಿದಂತರಿಕ್ಷಂ ಶೀರ್ಷ್ಣೌದ್ಯೌ ಸಮವರ್ತತ ಪದ್ಭ್ಯಾಂ ಭೂಮಿರ್ದಿಶ ಶ್ರೋತ್ರಾತ್ ತಥಾ ಲೋಕಾಗುಂ ಅಕಲ್ಪಯನ್ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಸ್ತು ಪಾರೇ ಸರ್ವಾಣಿ ರೂಪಾಣಿ ವಿಚಿತ್ಯ ಧೀರಃ ನಾಮಾನಿ ಕೃತ್ವಾ ವಿವದನ್ಯದಾಸ್ತೆ ಧಾತಾ ಪುರಸ್ತಾದ್ಯ ಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂಥಾಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇ ಹರಾಕಂ ಮಹಿಮಾನಸ್ಸಚಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾ ಸಂತಿ ದೇವಾ ಅಭ್ಯಃ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾಚ ವಿಶ್ವಕರ್ಮಣ ಸಮವರ್ತತಾದಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವವಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂಥಾ ವಿದ್ಯತೆ ಯನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯಾತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ಋಜಾಯ ಬ್ರಾಹ್ಮಯೇ ಋಜಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅತನ್ವಶೇ ತೇಶ್ಚ ತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾತ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾನಾ ಅಮುಂ ಮನಿಷಾನಾ ಸರ್ವಂ ಮನಿಷಾನಾ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶನ್ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ತ್ರಿನೇಹನ್ಮೇ ಕಂದೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೀನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾ ರುಷ್ಟಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾ
आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्व्रते ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् राभम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः न हि त्वा शूरदेवा नमत्ता सोदिस्सन्तम् भीमम् नगाम् वारयन्ते एतोन्विन्दम् स्तवामेषानम् वस्व स्वराजम् न राजसामद्दिशन्नः प्रस्तोषदुपगाति चक्षवत्सामगीयमानम् अभिराजसा जुगुरत् आनो भरदक्षिणेनाभिशब्देन प्रमृषा इन्द्रमानो वसो निर्भाक्र उपक्रमस्वा भरदुषता दुष्णो जनानाम् अदाशोस्तरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रे सरित्वः अस्माभिः सुतम् सनु हि सद्योजुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्रा पदये समक्षो जयन्ते गणानाम् त्वा गणपतिम् हवामहे कदिम् कवीनामुपमश्रवस्तवम् ज्येष्ठजाचम् ब्रह्मणा ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् निशुसेद गणपते गणेशोत्पाहा पूर्विप्रथमम् कवीणाम् तरुते त्वक्रियते किञ्चनारे महामत्तम् मघवन् चित्रमच्च अभिज्ञानो मघवन्नादमानान् सखे भो दिवसुपते सखीनाम् रणम् कृतिरणकृत्सत्यशुष्मा भक्ते चिदाभज राये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् ओष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् ओष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् ऊष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियेयशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्रृणोर्बाहुभ्याम् विष्णो हस्ताभ्यागुम् सरस्वत्यै वाजो यन्तुर्यन्त्रेणाग्ने स्वसाम्राज्येनाभिषिञ्चामीन्द्रस्य त्वासाम्राज्येनाभिषिञ्चामि बृहस्पते स्वसाम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान् देवयज्ञामाशास्ते भूयो हरिष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यातदृद्यात् तदस्मै देवायासन्ताम् द्रुपदादिवेन मुमुषाणः छिन्नस्नात्वेमलादिव ऊतम् पवित्रेणेवाज्यम् आपश्युन्धन्तु मैनसः भोर्भुवस्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेतापादृधक्तस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगुम् समाः एवम् त्वयिनान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तपसा हृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः अनेजदेकम् मनसो जवी यो नैरद्देवा आप्नुवन् पूर्ववर्षत् तद्धावतोऽन्यानशक्ते तिष्ठत्तस्मिन् नपो वातरिष्वा दधारे तलेजति तन्नेजति तद्दूरे तद्वन् तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाक्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोह कश्योक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमभृणमस्नाभिरगुम् शुद्धमपापविद्धम् कविर्मणीषे परिभोः स्वयम्भूर्यातोऽर्थाच्चाश्वतेभ्यः समाभ्यः अन्धम् तव प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोय उविद्यायागुम् व्रताः अन्यदेवाहुर्विद्ययान्यदा गुरविद्यया इति शुश्रुपधीराणाम् येनस्तद्विदचक्षिरे विद्याञ्च विद्याञ्च यस्तद्वेदो भयगुंसः
अविद्यया
मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् नभ प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदा पुरतम् भवान् इति शुश्रुपधीराणाम् येनस्तद्विदचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मये न पात्रे सत्यस्यापि हितम् मुखम् तत्त्वम् पोषण्ण पावृणसत्यधर्माय दृष्टये ओषण्णे कर्षे यमसूर्यप्राजा प्रत्यव्यो हरश्मीन् समोहते जो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमथेदम् भस्मान्धगुम् शरीरम् ॐ क्रतोस्मर कृतगुस्मर क्रतोस्मर कृतगुस्मर अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ऋजोध्यस्मद्युहुराणमे नो भूयिष्ठान्ते नव उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्य मुदा जहार शक्रप्रवित्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीरुषम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यथोमुखम् अथो निष्ट्यावितस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः
ಸ್ತೋತ್ರಿಷ್ಟನ್ನಾಹಾರಮಚರಕವಿಃ ತಿರ್ಯಗೋರ್ಧ್ವಮದಶ್ಯಾಯಿ ತಸ್ಮಯಸ್ತಸ್ಯ ಸಂತತಾ ಸಂತಾಪಯತಿ ಸ್ವಂದೇಹಮಾಪಾದತಲಮಸ್ತಕಃ ತಸ್ಯ ಮಧ್ಯೆ ವಹ್ನಿಶಿಖಾ ಅನಿಯೋರ್ಧ್ವಾ ವ್ಯವಸ್ಥಿತಃ ನೀಲತೋ ಯದಮಧ್ಯಸ್ತಾದ್ ವಿಜ್ಜುಲ್ಲೇಖೇ ವಭಾಸ್ವರ ನೀವಾರಶೋಕವತ್ತನ್ವೇ ಪೀತಾ ವಾ ಸ್ವತ್ಯಣೋಪಮಾ ತಸ್ಯಾ ಶಿಖಾಯಾ ಮಧ್ಯೆ ಪರಮಾತ್ಮ ವ್ಯವಸ್ಥಿತಃ ಸ ಬ್ರಹ್ಮ ಸ ಶಿವ ಸ ಹರಿಸ್ತೇಂದ್ರ ಸೋಕ್ಷರ ಪರಮ ಸ್ವರಾಟ್ ಋತಗಂ ಸತ್ಯಂ ಪರಂ ಬ್ರಹ್ಮ ಪುರುಷಂ ಕೃಷ್ಣ ಪಿಂಗಳಂ ಊರ್ಧ್ವರೇತಂ ವಿರೂಪಾಕ್ಷಂ ವಿಶ್ವರೂಪಾಯ ವೈ ನಮೋ ನಮಃ ನಾರಾಯಣಾಯ ವಿದ್ಮಹೇ ವಾಸುದೇವಾಯ ಧೀಮಹಿ ತನ್ನೋ ವಿಷ್ಣು ಪ್ರಚೋದಯಾತ್ ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯ ಪರಿಪಾಲಯಂತಾ ನ್ಯಾಯೇನ ಮಾರ್ಗೇನ ಮಹಿಮಹೇಶಾಃ ಭೋ ಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ಶುಭಮಸ್ತು ನಿತ್ಯಂ ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ